इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्ल्यां 200,000,000,000,000,000 रूप्यकाणां विभिन्नात्मक विकासात्मक परियोजनानाम् उद्घाटनम् आधारशिलां च स्थापयिष्यति। प्रधानमन्त्री साहिबाबाद न्यू अशोकनगरयोः मध्ये दिल्ली गाजियाबाद मेरठ क्षेत्राणां 13 किलोमीटर परिमितस्य भागस्य नमो भारत वीथ्याः उद्घाटनं करिष्यति, यस्य निर्माणं प्रायः 450,000,000,000 रूप्यकाणां व्ययेन अभवत्। साहिबाबाद आरआरटीएस स्थात्रात् न्यू अशोकनगर आरआरटीएस स्थात्रं यावत् नमो भारत रेलयाने यात्राम् अपि करिष्यति। अमेरिका देशस्य राष्ट्रिय सुरक्षा परामर्शदः जैक सुलिवन अद्य आरभ्य भारतस्य द्विदिवसीय यात्रायां भविष्यति। सः राष्ट्रिय सुरक्षा परामर्शदेन अजीत डोबालेन, विदेशमन्त्रिणा एस जयशंकरेण च सह कतिपयैः प्रमुखैः भारतीय गणमान्यजनैः सहापि उपवेशनं करिष्यति। उत्तरभारतस्य विभिन्नेषु भागेषु तीव्र शीतलहरी कारणेन, कुज्झटिकायाः कारणेन च सामान्य जीवनं बाधितम्। अद्य सघनकुज्झटिकायाः कारणेन अनेक क्षेत्रेषु दृश्यताशून्यं यावत् आसीत्। अस्मात् कारणात् विमान रेल यानयोः सेवा बाधिता। ऋतुविभागेन उक्तं यत् पूर्वोत्तर प्रदेशस्य विभिन्नेषु क्षेत्रेषु ह्यः शीतदिवसस्य स्थितिः आसीत्। पंजाबे हरियाणा राज्ये चण्डीगढ़ क्षेत्रे दिल्ल्यां उत्तरप्रदेशे बिहार राज्ये उत्तर राजस्थाने उत्तर मध्यप्रदेशे उपहिमालयीय पश्चिमबंगे सिक्किमे च ह्यः रात्रौ सघनकुज्झटिकायाः अनुमानम् आसीत्। ऋतुविभागेन उक्तं यत् आगामिषु चतुर्षु दिवसेषु पूर्वपश्चिमभारतेषु न्यूनतमतापमाने परिवर्तनं न भविष्यति। केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्री डॉ जितेन्द्रसिंह ह्यः नवदिल्ल्यां वैज्ञानिक औद्योगिकानुसन्धानविभागस्य 40वें स्थापनदिवससमारोहे भागं भजितवान्। एतस्मिन् कार्यक्रमे भारतप्रशासनस्य प्रधानवैज्ञानिकपरामर्शदः प्रोफेसर अजयकुमारसूदः, औद्योगिकानुसन्धानपरिषदः च महानिदेशकः अपि उपस्थितौ आस्ताम्। अस्य समारोहस्य उद्देश्यं विभिन्नानां कार्यक्रमाणां माध्यमेन औद्योगिकानुसन्धानं नवाचारं च अग्रे समेधितुं विभागस्यास्य भूमिका सम्मानं वर्तते। भाजपेति दलेन ह्यः नवदिल्ली विधानसभासनात् आप इति दलस्य संयोजकस्य अरविन्द केजरीवालस्य विरुद्धं दलस्य पूर्व सांसदः परवेश वर्मा इत्यस्य नामांकितम्। तत्रैव दलस्य नेता रमेशः विधूरी कालकाजी विधानसभासनात् दिल्ल्याः मुख्यमन्त्रिणः आतिशी इत्यस्याः विरुद्धं नैर्वाचनिक समराङ्गणे भविष्यति। भाजपेति दलेन ह्यः दिल्ली विधानसभा निर्वाचनाय 29 अभ्यर्थिनां प्रथमा सूची प्रसारिता। दिल्ली भाजपा दलस्य पूर्व प्रमुख सतीश उपाध्याय मालवीय नगर विधानसभासनात् तथा च आपदलस्य पूर्व नेता कैलास गहलोत बिजवासन विधानसभासनात् स्पर्धिष्यत। भारतीय सुपर लीग फुटबॉल क्रीडायां जमशेदपुर एफसी इत्यनेन दलेन गतरात्रौ बेंगलुरु एफसी इत्येतं दलं 2-1 इत्यंकान्तरालेन पराजितम् इति वार्ताः।